अस्तु, हा सर्वेभ्यो नमस्कारः. गीतासोपन वर्गः आरम्भं कुर्मः. अत्र गतसप्ताहे वयं किञ्चित् बहुवचनरूपम् अपि किं वयं कृतवन्तः, भवती भवान् भवन्तः भवती भवत्यः इति अहं वयम् इति अपि एषः कः अपि बहुवचनस्य किञ्चित् अभ्यासः कृतवन्तः अभ्यासपुस्तके. अत्र गृहपाठमपि आसीत्, तत्र पेज् 51 इति आसीत्, अहं 41 इति लिखितवान्, किन्तु भानुचैतन्यमहोदय तस्य समीकरणं कृतवान्. अस्तु, तत्र पेज् 51 मध्ये गृहपाठः आसीत्, तत्र या हस्तः इति पदम् अस्ति चेत् तत् स्वीकृत्य किञ्चित् सः हस्तः ते हस्ताः इति वाक्यं कुर्वन्तु इति अहं तत् करोमि. अहं प्रथमवारम् अहम् एतत् करोमि, तदनन्तरम् अहं भवन्तौ कर्तुं आह्वानं करोमि. अस्तु, प्रिया भगिनी अपि अस्ति, नमस्कार भगिनी. अरुणा भगिनी अपि अस्ति, नमस्कारः. अस्तु, अत्र एतत् कुर्मः, अहं कं पृच्छामि. अस्तु, अहं भानुचैतन्यमहोदय, भानुचैतन्यमहोदय, अहं प्रश्नं पृच्छामि, भवान् उत्तरं वदतु, तदनन्तरं भवान् अन्यान् प्रश्नं पृच्छतु, ते उत्तरं ददन्ति. अस्तु, अस्तु, एषः प्रथमं तत्र पेज् 51 मध्ये यद् अस्ति तस्य प्रश्नवाचकः प्रश्नं प्रष्टव्यमस्ति. प्रथममस्ति हस्तः, अतः अहं भानुचैतन्यमहोदयम् एतत् पृच्छामि, एषः कः इति, अथवा अपि बहुवचने अपि अहं पृच्छामि, एते के,
एते हस्ताः,
एते हस्ताः. समीचीनं महोदय. इदानीं भवान् अग्रिमं सीवनयन्त्रम् इति अस्ति, वंशीसुधा भगिनी भवती उत्तरं ददाति वा, भानुचैतन्यमहोदय पृच्छति,
भवती उत्तरं ददाति.
अस्तु, भानुचैतन्यमहोदय इदानीम्
एतत् किम्?
एतत् सीवनयन्त्रम्.
एतानि कानि?
एतानि सीवनयन्त्राणि.
अस्तु, समीचीनं. वंशी भगिनी, वंशीसुधा भगिनी, इदानीं भवती हर्षिता भगिनीं पृच्छति अग्रिमम्.
आम्, तत् किं
लोकयानं? लोकयानं
तत् किं?
तत् लोकयानम् अस्ति.
बहुवचने.
तानि, तानि कानि?
तानि लोकयानि.
लोकयानानि,
लोकयानानि सन्ति.
समीचीनं. हर्षिता भगिनी, भवती रघुपति आचार्यं पृच्छति इदानीं अग्रिमं, स्यूतः इति अस्ति.
सः कः?
सः स्यूतः.
ते काः?
ते के?
ते के?
ते स्यूताः.
समीचीनं. रघुपतिमहोदय, भवान् रमाबाई पृच्छति.
एषा द्विचक्रिका? एषा का?
एषा द्विचक्रिका.
एषाः द्विचक्रि, एषाः काः?
एताः एताः द्विचक्रिकाः.
पुनर् प्रश्नं पृच्छतु महोदय, बहुवचने किमस्ति?
एषाः
एताः किमस्ति उत्तरम्?
एताः द्विचक्रिकाः।
हा समीचीनं भगिनि। हा भगिनी अपि भवती प्रिया भगिनी पृच्छतु।
अस्तु, एषा का?
नमस्कारः, एषा
कुञ्चिका। एताः काः?
एताः कुञ्चिकाः।
हा समीचीनं। प्रिया भगिनी भवती अरुणा भगिनीं पृच्छतु अग्रिमम् अग्रिमम्।
अस्तु, एषा का? सा का?
अरुणा भगिनी वदति वा? अस्तु, सरला भगिनी वदति वा?
दा कर्तरी।
हा अस्तु, हा बहुवचने? ताः कर्तव्यः। समीचीनं, सरलभगिनी उक्तवती खलु इदानीं।
आमां महोदय।
हा सरलभगिनी अग्रिमं भवती भानुचैतन्यमहोदयं पृच्छतु अग्रिमम्। कर्तरी कृतम् अग्रिमं दूरवाणी इति।
एषा दूरवाणी।
सः काः? एताः काः?
एताः दूरवाण्यः।
हा समीचीनम्। अस्तु, अस्तु अरुणभगिनी वक्तुम् इच्छति वा? अन्य कोऽपि अस्ति वा इदानीं न उक्तं किन्तु वक्तुम् इच्छति चेत् कृपया वदतु। अस्तु, आर्ति भगिनी, क्षम्यतां भगिनी। हा भानुचैतन्य महोदय प्रश्नं पृच्छतु अग्रिमं। हा
एषा का?
एषा अङ्कनी।
एताः काः?
एताः अङ्कन्यः।
हा समीचीनं भगिनि। हा अग्रे अस्तु, तत् यत् गृहपाठः अस्ति तद् सर्वे कृतवन्तः इति अत्र अभ्यासः जातः। इदानीं पेज् 21 गच्छामः, पुनः पेज् 21। तत्र एव गतसप्ताहे अस्माकम् अभ्यासः कृतं। तत्र 4.3 आ इति अस्ति, तत्र क्रियापदानि इति अस्ति। आर्ति भगिनी भवती एव पठति वा अत्र?
4.3 आ। बहुवचनरूपाणि लिखतु, भवान् पठतु, भवन्तः पठन्तु।
न न क्षम्यतां, 4.3 न केवलं प्रथमं पेज् 21। क्रियापदानि इति अस्ति तत्र बहुवचनम्।
रेखाङ्कितस्य केवलं वचनपरिवर्तनं करोतु। यथा सः विद्यालये पठति, ते विद्यालये पठन्ति।
हा तत्र विषयः इति वदामः, सः पठति, तद् तस्य बहुवचनरूपं वयं जानीमः, ते पठन्ति। सः शब्दस्य बहुवचनम् अस्ति, ते पठति इति शब्दस्य पठति इति क्रियापदमस्ति, तस्य बहुवचनरूपम् अस्ति पठन्ति इति। सः पठति, ते पठन्ति, अत्र वयं किं कुर्मः, सः कुत्र पठति इति तदपि वदामः, सः विद्यालये पठति इति। विद्यालये एतद् तद् वयं वदामः सप्तमी विभक्ति इति अस्ति इति, लोकेटिव् केस् इति वदामः आङ्ग्लभाषायां। तत्र सप्तमी विभक्ति सः विद्यालये पठति. प्रश्नवाचक तत्र किं भवति चेत् सः कुत्र पठति, सः विद्यालये पठति. ते पठन्ति, ते कुत्र पठन्ति, ते विद्यालये पठन्ति इति उत्तरं भवति. सः पठति, कुत्र पठति, सः विद्यालये पठति. ते पठन्ति बहुवचने, कुत्र पठन्ति, ते विद्यालये पठन्ति. विद्यालयम् अस्ति अथवा विद्यालयः अस्ति, तत्र विद्यालये इति सप्तमीविभक्तिरूपं भवति. अस्तु, अन्य कोऽपि अत्र अन्य अस्ति, अन्य कोऽपि आगतवान् वा वक्तुम् इच्छति चेत् नामानि वदतु.
गीता नमस्कारः.
गीता भगिनी नमस्कारः. भवती अग्रिमं करोति वा तत्र, सा गृहे इति?
सा गृहे वसति.
हा, तस्य बहुवचनरूपं
ताः विद्यालये वसन्ति.
न न, गृहे गृहे
सारि गृहे वसन्ति.
हा, समीचीनं समीचीनं समीचीनं. हा, चिन्ता मास्तु. हा, तत्र अंशः, मुख्यांशः किम् अस्ति चेत्, यद् मध्ये अस्ति विद्यालये, तस्य परिवर्तनं न भवति. सः ते भवति, पठति पठन्ति इति भवति, किन्तु विद्यालये एकवचने वा बहुवचने विद्यालये एव भवति. सः विद्यालये पठति, ते विद्यालये पठन्ति. सा गृहे वसति बहुवचने किं भवति भगिनि, पुनरेकवारं वदतु.
ताः गृहे वसन्ति.
हा, ताः गृहे वसन्ति, समीचीनम्. अग्रिमं वंशीसुधा भगिनी अग्रिमं करोति वा, एषः इति?
आं महोदय, एषः कार्यालये तिष्ठन्ति बहुवचनरूपे.
तिष्ठति अत्र एकवचनं.
तिष्ठति, एषः कार्यालये तिष्ठति बहुवचनरूपे. एते कार्यालये तिष्ठन्ति. एषः कुत्र तिष्ठति, एषः कार्यालये तिष्ठति. एते कुत्र तिष्ठन्ति, एते कार्यालये तिष्ठन्ति.
समीचीनं भगिनि. हा, अस्तु, अग्रे रघुपति महोदय अग्रिमं करोति वा.
लतायां पुष्पं विकसति, कस्याः पुष्पं विकसति?
न न न, लतायां पुष्पं लतायां.
सारि सारि,
प्रथमं
लताया, सारि, लतायां पुष्पं विकसति. लतायां
बहुवचनं किम् अस्ति, बहुवचनं किम् अस्ति तत्र?
लतायां
तत्र किञ्चित् न न न, प्रश्नः मा पृच्छतु. तत्र एकं तत्र पश्यतु, तत्र अण्डर्लैन् इति किं किं, कस्य पदस्य अण्डर्लैन् कृतम् इति तत्र पश्यतु.
लतायां
सः इति, लतायां
लतायां किं विकसति?
प्रथमं तत्तु समीचीनमस्ति. लतायां किं विकसति तदपि समीचीनमस्ति, किन्तु प्रथमं यद् वाक्यमस्ति तस्य बहुवचनरूपं वदतु, तदनन्तरं प्रश्नं पृच्छतु.
एकनिमिषं,
चिन्ता मास्तु.
पुष्पं विकसति,
तत्र एतत् चिन्तयतु, पुष्पं लतायां विकसति. सः विद्यालये पठति, पुष्पं लतायां विकसति इति चिन्तयतु. हा, इदानीं वदतु.
लतायां पुष्पाणि विकसन्ति.
समीचीनं, बहु समीचीनं महोदय. हा, लतायां पुष्पाणि विकसन्ति. तत्र संस्कृतभाषे किमस्ति चेत्, तत्र आर्डर् यत् अस्ति, आङ्ग्लभाषायां वदामः, तस्य परिवर्तनं भवति चेदपि, पदक्रमं यदि तस्य परिवर्तनं भवति चेदपि अर्थसमानः भवति. तत्र यदि वदामः पुष्पं लतायां विकसति अथवा लतायां पुष्पं विकसति, समानार्थक अर्थः समानः एव. अस्तु, किन्तु पुष्पं लतायां विकसति इति प्रायशः अवगमनार्थं सुलभः अस्ति, अथवा लतायां पुष्पं विकसति, तदपि समीचीनमस्ति. अस्तु महोदय, इदानीं प्रश्नं पृच्छतु तत्र किमस्ति इति. उत्तरं भवति लतायाम् इति. न न, उत्तरम् उत्तरे लता भवति,
उत्तरं भवति लतायाम्. ओके ओके. लतायाम् इत्युक्ते
पुष्पं
पुष्पं लतायां पुष्पं.
अहम् उदाहरणं वदामि. सः विद्यालये पठति, सः कुत्र पठति? सः विद्यालये पठति. पुष्पं लतायां विकसति. अतः प्रश्नः किं भवति?
पुष्पं कुत्र विकसति? पुष्पं कुत्र विकसति? पुष्पं लतायां विकसति.
इदानीं बहुवचने पुष्पाणि पुष्पाणि
पुष्पाणि पुष्पाणि पुष्पाणि बहुवचनरूपं कुत्र अस्ति?
कुत्र एव अस्ति.
आम् आम्, पुष्पाणि कुत्र विकसन्ति?
उत्तरमस्ति
पुष्पाणि लतायां विकसन्ति.
समीचीनं महोदय, अस्तु समीचीनं, बहु समीचीनम्. अस्तु,
लतायाम् एकनिमिष, लतायां विभक्ति कः?
सप्तमी लतायां,
सप्तमी
इन् द क्रीपर्. इन् द क्रीपर् अथवा आन् द क्रीपर्. फ्लवर्स् ब्लासम् आन् द क्रीपर् इति. अस्तु, अग्रे हर्षिता भगिनी अग्रिमं करोति वा?
महोदय, भवान् क्रीडाङ्गणे क्रीडति, भवन्तः क्रीडाङ्गणे क्रीडन्ति, भवान् कुत्र क्रीडन्ति?
क्रीडति.
भवान् कुत्र क्रीडति?
बहुवचने,
बहुवचने, भवन्तः क्रीडाङ्गणे क्रीडन्ति.
प्रश्नः
भवन्तः
प्रश्नः
भवन्तः कुत्र क्रीडन्ति?
भवन्तः क्रीडाङ्गणे
क्रीडाङ्गणे क्रीडन्ति.
क्रीडन्ति, समीचीनं भगिनि. प्रिया भगिनी अग्रिमं करोति वा?
महोदय, करोमि. भवती प्रतिदिनं नृत्यति, भवत्यः प्रतिदिनं नृत्यन्ति.
समीचीनं.
भवती कदा नृत्यति? भवती प्रतिदिनं नृत्यति.
तत्र किञ्चित् क्लिष्टः अस्ति. प्रतिदिनम् इति अस्ति, प्रतिदिने इति अस्ति चेत् प्रायशः इति भवति. अस्तु, अत्र कदा एव समीचीनम् अस्ति तत्र भगिनि, समीचीनमेव. इदानीं बहुवचनमपि वदतु, प्रश्नवाचकः.
भवत्यः कदा नृत्यन्ति? भवत्यः प्रतिदिनं नृत्यन्ति.
समीचीनं भगिनि, अस्तु. रमाबाय् भगिनी अग्रिमम्.
वने सिंहः गर्जति, सिंहः कुत्र गर्जति? वने सिंहाः गर्जन्ति. सिंहः कुत्र गर्जन्ति?
सिंहाः वने गर्जन्ति. समीचीनं. तत्र सिंहः सिंहाः किञ्चित् भेदः प्रदर्शनीयमस्ति, नो चेत् यः शृणोति तस्य मनसि किञ्चित् क्लेशः भवति. अतः सिंहः सिंहाः इति.
सिंहाः.
तत्र हकारः अस्ति, तदनन्तरं विसर्गः अस्ति खलु, अतः किञ्चित् क्लेशः भवति. सिंहाः इति. तावदेव भगिनि. अस्तु, गीता भगिनी अग्रे.
एषा चित्रं पश्यति,
तत्र किम् एव समीचीनम् अस्ति, किं पश्यति इति एव पृच्छतु प्रश्नः.
एषा किं पश्यति, एषा चित्रं पश्यति.
बहुवचने
चित्रम् इस् द्वितीया विभक्ति न?
आमामां सत्यं सत्यं. एताः चित्रम्
एताः चित्रं पश्यन्ति. एषा किं पश्यति, किं पश्यन्ति एताः किं पश्यन्ति, एताः चित्रं पश्यन्ति.
हा समीचीनम् अस्तु. अग्रे भानुचैतन्य महोदय न कृतम् इति मन्ये, अग्रिमं करोति वा?
आं महोदय. बालः शालां गच्छति, बालः गच्छति अधोरेखाङ्कितः.
तत्र प्रश्नवाचकः किम् एव अस्ति,
बालः कुत्र गच्छति.
अस्तु.
बालः शालां गच्छति, बालाः शालां गच्छन्ति, बालाः कुत्र गच्छन्ति.
समीचीनम् अस्तु.
बालाः शालां गच्छन्ति.
समीचीनं महोदय. अस्तु, यः न कृतवान् सरला भगिनी न कृतं, सरला भगिनी नमस्कारः भगिनी. अग्रिमं करोतु.
वानरः फलं खादति, वानरः किं खादति, वानरः फलं खादति. बहुवचने वानराः फलं खादन्ति. वानराः किं खादन्ति, वानराः फलं खादन्ति.
समीचीनं भगिनि. अस्तु,
फलमपि बहुवचने कर्तुं समीचीनं वा?
समीचीनं समीचीनम् अस्ति, समीचीनं. तत्र तत्र सुलभं भवतु इति, सुलभं भवतु इति. अनेकाः वानराः सन्ति चेत् एकं फलमेव न खादन्ति इति खलु, खादन्ति तत् समीचीनमेव अस्ति भगिनि. तत्र सुलभं भवति भवतु इति तावदेव. अस्तु, अत्र किञ्चित् क्रियापदस्य बहुवचनरूपस्य अभ्यासः जातः इदानीं. तत्र यत् अन्यः अस्ति तस्य परिवर्तनं न भवति. अस्तु, तत्र वाक्ये किं भवति, अन्यः यत् ये यानि पदानि सन्ति तस्य परिवर्तनं न भवति. यदि क्रियापदस्य बहुवचनरूपम् इच्छन्ति चेत् क्रियापदस्य बहुवचनरूपं कर्तुं शक्नुवन्ति, किन्तु केवलं तस्य कर्तृपदम् इति अस्ति तत्र वाक्ये, सब्जेक्ट् इति. सः पठति, पठति, पठन्ति भवति चेत् सः ते भवति, तावदेव. अन्यस्य पदस्य परिवर्तनं वाक्ये न भवति, न तस्य आवश्यकं नास्ति. कर्तुं शक्नुमः, यदि न कुर्मः अपि समीचीनमेव भवति इति. अस्तु, अग्रे अस्माकम् अभ्यासः अस्ति एतत् पठतु इति. एतत् सर्वं वयं पूर्वे दृष्टवन्तः, तत्र प्रेरणार्थकः अथवा आज्ञारूपम् इति यत् पेज् 15 मध्ये दृष्टवन्तः. गच्छति, गच्छतु इति, आगच्छति, आगच्छतु, लिखति, लिखतु, पिबति, पिबतु इति. तस्य इदानीं बहुवचनरूपं किम् अस्ति इति अत्र परिशीलयामः. भवान् पठतु इति अस्ति, तत्र भवन्तः पठन्तु इति भवति. अस्तु, अग्रे कः पठति, तत्र प्रिया भगिनी तत् पठति वा, 4.3 आ इति?
आं महोदय, पठामि. भवती लिखतु खलु?
तदेव.
भवती लिखतु, भवत्यः लिखन्तु.
समीचीनं. अग्रे
अम्बा गच्छतु
बहुवचने
एकनिमिष अम्बाः गच्छन्तु
अम्बा एकवचने तद् अम्बाः इति भवति बहुवचने
अम्बाः गच्छन्तु
समीचीनं
अनुजः
अग्रिमम्
अनुजः क्रीडतु अनुजाः क्रीडन्तु
समीचीनं
बालिका नृत्यतु बालिकाः नृत्यन्तु एषः तिष्ठतु एते तिष्ठन्तु
एते तिष्ठन्तु समीचीनं समीचीनं भगिनि तत्र तिष्ठतु पठतु लिखतु गच्छतु क्रीडतु एकवचने अस्ति इदानीं बहुवचने रूपं किम् अस्ति चेत् तत्र नकारः मध्ये आगच्छति पठतु मध्ये नकारः पट् इति धातुः अस्ति तु इति अन्ते अस्ति तस्य तयोः मध्ये इन् इति भवति पठन् तु इति पठतु पठन्तु लिखतु लिखन्तु गच्छतु गच्छन्तु क्रीडतु क्रीडन्तु क्रीड् अन्तु तु शब्दस्य पूर्वम् इन् इति भवति तावदेव परिवर्तनं बहु सुलभः अस्ति तत्र बहुवचने अस्तु अग्रे तत्र वंशीसुता भगिनी तत्र यदस्ति तदेव एषः इति उपयुज्य सर्वं करोतु एषः पठतु एते पठन्तु इति
आं महोदय एषः पठतु एते पठन्तु एषा लिखतु एताः लिखन्तु अम्बा एव एषा वदामि महोदय एषा गच्छतु एताः गच्छन्तु एषः क्रीडतु एते क्रीडन्तु एषा नृत्यतु एताः नृत्यन्तु एषः तिष्ठतु एते तिष्ठन्तु
समीचीनं भगिनि अग्रे अरुणा भगिनी अग्रिमं तदेव अम्बा इति उपयुज्य सर्वं करोतु
अम्बा पठतु अम्बा अम्बा लिखतु अम्बाः लिखन्तु अम्बा गच्छतु अम्बाः गच्छन्तु अम्बा क्रीडतु अम्बाः क्रीडन्तु अम्बा नृत्यतु अम्बाः नृत्यन्तु अम्बा तिष्ठतु अम्बाः तिष्ठन्तु
समीचीनं भगिनि अस्तु आरती भगिनी तदेव यदस्ति अनुजः इति अनुजः पठतु इति
आम् आम् अनुजः पठतु अनुजः पठन्तु अनुजाः पठन्तु अनुजः लिखतु अनुजाः लिखन्तु अनुजः गच्छतु अनुजाः गच्छन्तु अनुजः क्रीडतु अनुजाः क्रीडन्तु अनुजः नृत्यतु अनुजाः नृत्यन्तु अनुजाः तिष्ठन्तु
समीचीनं भगिनि अस्तु इदानीं रघुपति महोदय तत्र बालिका इति सर्वं बालिका इति उपयुज्य सर्वं करोतु बालिका पठतु इति रघुपतिमहोदय अस्ति वा अस्तु कः न कृतवान् अरुणा भगिनी अरुणा भगिनी वक्तुमिच्छति वा अथवा गीता भगिनी कृतवती खलु अस्तु
बालिका
बालिका इति करोतु भगिनी
पठतु भवान् मीन्स्
बालिका बालकः किमपि प्रथमपुरुषः अहं त्वं तद् निष्कास्य अन्यत् सर्वं प्रथमपुरुषे यद्यत् किमपि अस्ति तत्सर्वं तत्र वक्तुं शक्नुमः.
बालिका पठतु, बालिकाः पठन्तु, बालिका लिखतु, बालिकाः लिखन्तु, बालिका गच्छतु, बालिकाः गच्छन्तु, बालिका क्रीडतु, बालिकाः क्रीडन्तु, बालिका नृत्यतु, बालिकाः नृत्यन्तु, बालिका तिष्ठतु, बालिकाः तिष्ठन्तु.
समीचीनं समीचीनम् अस्तु,
धन्यवादः.
अग्रे भानुचैतन्य महोदय न उक्तवान् इति मन्ये, अन्य ओ हर्षिता भगिनी अपि न उक्तवती. अस्तु, हा तत्र एतत् कुर्मः, तत्र किञ्चित् पेज् एतत् वयं कृतं. हा भानुचैतन्य महोदय, पेज् 15 मध्ये तत्र एव वयं एतत् प्रार्थनारूपं लोट्लकार इति वदामः तस्य प्रयोजनं प्रथमवारं दृष्टवन्तः. तत्र यत् अस्ति तत्र तत्र अनुजः इति उपयुज्य अथवा रामः इति उपयुज्य पठति क्रीडतु इति अस्ति. तत्र रामः पठति, तत्र रामः पठतु, रामाः पठन्तु इति तद् प्रथमं कालं यदस्ति तद् कृपया करोतु. पठति क्रीडति, पृष्ठसङ्ख्या अस्ति 15.
पञ्चदश तत्र तु युतकं पुनः
पञ्चदश हा पञ्चदश तत्र न न पञ्चाशत् न पञ्चदश केवलं पञ्चदश
पठति
क्रीडति लोट्लक
रामः पठतु,
क्रीडति,
रामः क्रीडति, रामः क्रीडतु, रामाः क्रीडन्तु, रामः खादति, रामः खादतु, रामाः खादन्तु, रामः हसति, रामः हसतु, रामाः हसन्तु, रामः मिलति, रामः मिलतु, रामाः मिलन्तु, रामः करोति, रामः करोतु, रामाः कुर्वन्तु
इति अस्ति तद् अग्रे आगच्छति. हा क्षम्यतां, किन्तु समीचीनमेव अस्ति. हा हर्षिता भगिनी भवती कृतवती. हा प्रश्नः अस्ति वा? एकनिमिषं भगिनि कस्यापि प्रश्नः अस्ति वा अत्र?
महोदय करोतु अहि सम्यक् एव महोदय, कुर्वन्तु
करोतु एकवचने, करोतु एकवचने सम्यक् अस्ति,
बहुवचने कुर्वन्तु,
कुर्वन्तु इति अस्ति, कुर्वन्तु इति अस्ति. हा तत् किञ्चित् क्लिष्टः अस्ति, किन्तु अस्तु. हां हर्षिता भगिनी अग्रे करोतु कृपया, तदेव पठति इति. हा
रामः लिखति, रामः लिखतु, रामाः लिखन्तु, लिखन्ति, रामः पिबति, रामः पिबतु, रामाः पिबन्ति,
रामः पिबन्तु इति तदपि,
रामाः पिबन्तु, रामः नयति, रामः नयतु, रामाः नयन्तु, रामः पश्यति, रामः पश्यतु, रामाः पश्यन्तु, रामः तिष्ठति, रामः तिष्ठतु, रामाः तिष्ठन्तु, रामः भवति, रामः भवतु, रामाः भवन्तु.
समीचीनं भगिनि. अस्तु, यः न कृतवान् अथवा या न कृतवती इदानीं पर्यन्तं सरला भगिनी न कृतवती वा?
अस्तु महोदय.
कृतवती वा भवती न वा? कृतवती एव. अस्तु, रमाबाई भगिनी कृतवती?
अहं करोमि, अहं करोमि महोदय.
अस्तु 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 अस्तु, तदेव करोतु. तदेव करोतु. सीता, सीता इति स्वीकरोतु. सीता लिखति, सीता लिखति.
पेज् नम्बर् कः?
पेज् नम्बर् 15, पेज् 15 अस्ति एतत्. 15,
अस्तु अस्तु महोदय, धन्यवादः.
15,
सीता लिखति, सीता लिखतु, सीताः लिखन्तु. सीता पिबति, सीता पिबतु, सीताः पिबन्तु. सीता नयति, सीता नयतु, सीताः नयन्तु. सीता पश्यति, सीता पश्यतु, सीताः पश्यन्तु. सीता तिष्ठति, सीता तिष्ठतु, सीताः तिष्ठन्तु. सीता भवति, सीता भवतु, सीताः भवन्तु.
हा, समीचीनं भगिनि. अस्तु, सर्वे कृतवन्तः इति मन्ये? यदि कोऽपि न कृतवान् अथवा कृतवती, कृपया वदतु. अस्तु, तत्र यत् एतत् वदामः लोट् लकारः इति अस्ति, तत्र प्रेरणार्थक अथवा आज्ञार्थक अर्थे अस्ति. पठतु, तत् प्रार्थना भवति, कृपया पठतु महोदय, अथवा एतत् पठतु इति आज्ञा अपि भवितुम् अर्हति तत्र. पठतु, पिबतु, क्रीडतु, नृत्यतु, सर्वं. अस्तु, इदानीं बहुवचनरूपस्य एव अन्यत् किञ्चित् अभ्यासः अस्ति. तदनन्तरं कति इति विषयः आगच्छति. तत्र अग्रिमं अस्तु, गीता भगिनी अग्रिमं पठति वा? तत्र 4.3 पेज्
अहं बहुवचनरूपाणि लिखतु.
तत्रापि वदतु, तत्रापि पश्यतु, लिखतु इति अस्ति. लिखतु, यत् वयम् इदानीं दृष्टवन्तः तदेव अस्ति, लिखतु इति. कृपया वदतु भगिनि.
अहं खादामि, वयं खादामः. अहं हसामि, वयं हसामः. अहम् इच्छामि, वयम् इच्छामः. अहं पिबामि, वयं पिबामः.
समीचीनं. तत्र इदानीं प्रश्नं पृच्छामः. अस्तु, सरला भगिनी पठति इति अहं पृच्छामि, अहं पठामि इति वदतु. अस्तु, लिखति,
अहं लिखामि, वयं लिखामः.
समीचीनं. गच्छति,
अहं गच्छामि, वयं गच्छामः.
क्रीडति,
अहं क्रीडामि, वयं क्रीडामः.
नृत्यति,
अहं नृत्यामि, वयं नृत्यामः.
तिष्ठतु,
अहं तिष्ठामि, वयं तिष्ठामः.
समीचीनम्. अस्तु, अग्रे वंशीसुधा भगिनी. पठति,
अहं पठामि, वयं पठामः.
क्रीडति,
अहं क्रीडामि, वयं क्रीडामः.
लिखति,
अहं लिखामि, वयं लिखामः.
पश्यति,
अहं पश्यामि, वयं पश्यामः.
नयति,
अहं नयामि, वयं नयामः.
समीचीनं. भानुचेतनी महोदय अग्रे. पठति,
अहं पठामि,
बहुवचने
अहं पठामि, वयं पठामः.
लिखतु, लिखति,
अहं लिखामि वयं लिखामः
हा मिलति
अहं मिलामि वयं मिलामः
हा करोति
अहं करोमि
करोति
वयं
यजामः क्षम्यतां खादति इति स्वीकुर्मः इति हा खादति हा
अहं खादामि वयं खादामः
हा क्रीडति
अहं क्रीडामि वयं क्रीडामः
हा अस्तु महोदय रमाबाई भगिनी अग्रे नयति इति
महोदय
नयति
नयति अहं नयामि वयं नयामः
हा पश्यति
अहं पश्यामि वयं पश्यामः
आगच्छति
अहम् आगच्छामि वयम् आगच्छामः
हा पठति
अहं पठामि वयं पठामः
हा समीचीनं भगिनि हा आरती भगिनी अग्रे तिष्ठति
अहं तिष्ठामि वयं तिष्ठामः
हा इच्छा इच्छति
अहम् इच्छामि वयम् इच्छामः
हा गच्छति
अहं गच्छामि वयं गच्छामः
हा नयति
अहं नयामि वयं नयामः
हा लिखति
अहं लिखामि वयं लिखामः
हा खादति
अहं खादामि वयं खादामः
हा समीचीनं भगिनि अस्तु यः न हा हर्षिता भगिनी अग्रे हा पठति
अहं पठामि वयं पठामः
हा क्रीडति
अहं क्रीडामि वयं क्रीडामः
हा तिष्ठति
अहं तिष्ठामि वयं तिष्ठामः
आगच्छति
अहम् आगच्छामि वयम् आगच्छामः
हा हसति
अहं हसामि वयं हसामः
हा पिबति
अहं पिबामि वयं पिबामः
हा समीचीनं भगिनि अस्तु अन्यः प्रिया भगिनी अग्रे खादति
अहं खादामि वयं खादामः
हा गच्छति
अहं गच्छामि वयं गच्छामः
गर्जति
गर्जति वा अहं गर्जामि वयं गर्जामः
हा अस्तु आगच्छति
अहम् आगच्छामि वयम् आगच्छामः
तिष्ठति
अहं तिष्ठामि वयं तिष्ठामः
हा समीचीनं भगिनि अस्तु कः न कृतवान् रघुपति आचार्य महोदय रघुपति अस्तु अस्तु हा पठति इति
अहं पठामि वयं पठामः
वसति
अहं वसामि वयं वसामः
हा खादति
अहं खादामि वयं खादामः
हसति
अहं हसामि वयं हसामः
पश्यति
अहं पश्यामि वयं पश्यामः
लिखति
अहं लिखामि वयं लिखामः
समीचीनम् अस्तु कोऽपि न कृतवान् वा अथवा कृतवती वा कृपया पृच्छतु अथवा वदतु अस्तु सर्वे कृतवन्तः इति मन्ये अस्तु हा अतः अग्रे गच्छामः तत्र अहम् इति तस्य क्रियापदस्य संयोजनं कीदृशं भवति अहं खादामि वयं खादामः बहु सुलभम् अस्ति खादामि खादामः मकारः एव अस्ति इ इति मि इति यत् आङ्ग्लभाषायाम् अस्ति तदेव तत्र क्रियापदे भवति हा अतः अहम् इति शब्दस्य क्रियापदं किम् इति सुलभतया कर्तुं शक्नुमः वयम्. अस्तु, अग्रिमम् अस्ति तत्र विशेष अभ्यासः. करोति इति बहुवचने करोन्ति इति नास्ति, कुर्वन्ति इति अस्ति. तत्र पूर्वं यत् क्रियापदम् अस्ति तत्र गर्जति, नृत्यति, पश्यति, गच्छति, खादति, क्रीडति, तत्र सर्वत्र बहुवचनं सुलभमासीत्, पठति, पठन्ति इति भवति. किन्तु तत्र अत्र तादृशः नास्ति, किञ्चित् विशेषः अस्ति. तत्र एकवारं एतत् पश्यामः. वंशीसुधा भगिनी, तत् कोष्टकं पठति वा एकवारं, विशेषाभ्यासः इति.
अहं पठामि महोदय.
पठतु पठतु.
करोति कुर्वन्ति, शृणोति शृण्वन्ति, ददाति ददति, जानाति जानन्ति, शक्नोति शक्नुवन्ति, करोमि कुर्मः, शृणोमि शृणुमः, ददामि दद्मः, जानामि जानीमः, शक्नोमि शक्नुमः
इति अस्ति. अस्तु, तत्र अभ्यासद्वयमत्र कुर्मः वयम् अद्य. प्रथमम् अभ्यासः एतदस्ति, प्रथम अभ्यासः तदस्ति यत् कोष्टके अस्ति तस्य पूर्वं
महोदय
किं
पुटम् अस्ति?
एतत् पेज् 22 अस्ति, पृष्ठसङ्ख्या. अस्तु, तत्र भवति या करोति, भवत्यः कुर्वन्ति इति प्रथमम् अभ्यासं कुर्मः. सर्वं यत् तत्र सर्वम् अस्ति तत्र भवति, करोति, भवति, कुर्वन्ति इति प्रथमम् अभ्यासः भवति. अस्तु, कं पृच्छामः? सरला भगिनी, भवती करोति वा? भवती करोति, भवत्यः कुर्वन्ति इति तादृश एकवचनं बहुवचनरूपं सर्वम्.
अस्तु, भवती करोति, भवती उपयुज्य केवलं
एकवचने भवति, सर्वं सर्वं भवति एव, किन्तु भवती एकवचने बहुवचने
भवत्यः. भवती करोति, भवत्यः कुर्वन्ति, भवती शृणोति, भवत्यः शृण्वन्ति, भवती ददाति, भवत्यः ददति, भवती जानाति, भवत्यः जानन्ति, भवती शक्नोति, भवत्यः शक्नुवन्ति.
करोमि अपि तद्
करोमि तथैव भवती करोति.
तत्र सत्यमेव सत्यमेव भवति. अहम् इति उपयोग्य करोतु.
अहं करोमि, वयं कुर्मः, अहं शृणोमि, वयं शृणुमः, अहं ददामि, वयं दद्मः, अहं जानामि, वयं जानीमः, अहं शक्नोमि, वयं शक्नुमः.
समीचीनं भगिनि. अस्तु, तत्र अग्रे बानुचैतन्य महोदय, तत्र अनुजः इति उपयुज्य, अनुजः करोति, अनुजाः कुर्वन्ति इति.
आं महोदय, अनुजः करोति, अनुजाः कुर्वन्ति, अनुजः शृणोति, अनुजाः शृण्वन्ति, अनुजः ददाति, अनुजाः ददति, अनुजः जानाति, अनुजाः जानन्ति, अनुजः शक्नोति, अनुजाः शक्नुवन्ति. अहं करोमि, वयं कुर्मः, अहं शृणोमि, वयं शृणुमः, अहं ददामि, वयं दद्मः, अहं जानामि, वयं जानीमः, अहं शक्नोमि, वयं शक्नुमः.
समीचीनं महोदय. अस्तु, एतत् अभ्यासः अन्ये अपि इदानीं कुर्वन्ति, किन्तु तदनन्तरं कः अभ्यासः इति तदपि अहं वदामि. आ, यदि अन्यः वद अन्यः कोऽपि वदति तस्मिन् समये अग्रिम अभ्यासः तदपि किञ्चित् कुर्वन्तु. अग्रिम अभ्यासः अस्ति वाक्यद्वयं, तत्र अग्रिमपुटे अस्ति कर्मकराः कार्यं कुर्वन्ति इति, तादृशः वाक्यद्वयं अहं पृच्छामि. अतः यत् क्रियापदं विशेष अभ्यासः यत् तत्र अस्ति करोति शृणोति, तस्य बहुवचनरूपं तत्र भवितव्यं. कुर्वन्ति केवलं कुर्वन्ति, शृण्वन्ति, ददाति, जानन्ति, शक्नुवन्ति, तत् उपयुज्य बहुवचन पदं किमपि मध्ये, तदनन्तरं क्रियापदं कर्मकराः कार्यं कुर्वन्ति इति, तादृशरूपं किञ्चित् तस्य चिन्तनं करोतु. सर्वं कृत यदि कुर्वन्ति तदनन्तरं तद् अभ्यासं कुर्मः. अस्तु, अग्रे कः पठति? रघुपति आचार्य महोदय पठति वा अग्रे? तत्र भवान् इति, भवान् करोति इति.
कुत्र?
पेज् 22 करोति इति अस्ति, कोष्टकमस्ति.
किं करणीयं?
करोति इति भवान् करोति,
भवन्तः कुर्वन्ति. भवान् शृणोति, भवन्तः शृण्वन्ति, भवान् ददाति, भवन्तः ददति, भवान् जानाति, भवन्तः जानन्ति, भवान् शक्नोति, भवन्तः शक्नुवन्ति.
अहं तदनन्तरम् अहं
करोमि, वयं कुर्मः. अहं शृणोमि, वयं शृणुमः. अहं ददामि, वयं दद्मः. अहं जानामि, वयं जानीमः. अहं शक्नोमि, वयं शक्नुमः.
समीचीनं महोदय. अस्तु, अग्रे गीता भगिनी पठति वा? तत्र बालिका इति.
बालिका, बालिका करोति, बालिकाः कुर्वन्ति. बालिका शृणोति, बालिकाः शृण्वन्ति. बालिका ददाति, बालिकाः ददति. बालिका जानाति, बालिकाः जानन्ति. बालिका शक्नोति, बालिकाः शक्नुवन्ति. अहं करोमि, अहं करोमि, वयं कुर्मः. अहं शृणोमि, वयं शृणुमः. अहं ददामि, वयं दद्मः. अहं जानामि, वयं जानीमः. अहं शक्नोमि, वयं शक्नुमः.
हा, समीचीनं भगिनि. हा, तत्र किमर्थम् एतत् सर्वं विशेष अभ्यासः इति अस्ति चेत्, तत्र रूपं सामान्यरूपं तादृशः नास्ति. हा, पठति पठन्ति तादृशः नास्ति, करोति कुर्वन्ति इति भवति. अपि एतत् पश्यतु, तत्र अन्ति तद् बहुवचनरूपं बहुवचने भवति इति वयं चिन्तयामः, किन्तु ददाति किं भवति? ददति एव भवति. तत्र अन् इति नास्ति बहुवचने. ददाति, तत्र अकारः दीर्घः अस्ति, किन्तु बहुवचने किं भवति? ददति इति. अकारस्य वयं वदामः लोपः भवति इति, आकारस्य लोपः भवति, केवलम् अकारः एव तत्र तिष्ठति इति वदामः. तद् किमर्थं तादृशः अस्ति चेत्, नामपदस्य विभजनं कुर्मः, डिविजन् इति ग्रूपिङ्ग्, अकारान्त पुल्लिङ्गपदं, स्त्रीलिङ्गपदं, नपुंसकलिङ्गपदम् इति तत्र विभजनं कुर्मः, डिविजन् ग्रूपिङ्ग् इति तत्र कुर्मः नामपदस्य. तदनन्तरम् अकारान्तशब्द, ईकारान्तशब्द, एतत् सर्वम् अस्ति, किन्तु तादृशः विभजनम् इत्युक्ते डिविजन् क्रियापदे अपि अस्ति. क्रियापदम् अनेकानि क्रियापदानि सन्ति, किन्तु तस्य विभजनं बहु मुख्यांशः अस्ति. एतत् विभजनं भवति गणः इति, क्रियापद अथवा धातुगणः इति विषयः अग्रे आगच्छति गीतासोपाने अथवा तदनन्तरम् आगच्छति. क्रियापदस्य दशगणाः सन्ति, दशगणाः सन्ति, यस्मिन् गणे धातुः अस्ति तत् दृष्ट्वा वयं वक्तुं शक्नुमः तस्य बहुवचनरूपं कीदृशं भवति, तस्य द्विवचनरूपं कीदृशं भवति, तस्य उत्तमपुरुषरूपं किं कीदृशं भवति. एतत् सर्वं धातुगणस्य तद् दृष्ट्वा वयं वक्तुं शक्नुमः. यदि क्रियापदद्वयम् एकमेव गणे अस्ति चेत् रूपं समानं भवति, किन्तु यदि क्रियापदस्य एकं प्रथमक्रियापदं पट् पठति इति अस्ति, द्वितीयक्रियापदमस्ति करोति इति अस्ति, तत्र गणः गणस्य भेदः भवति. पट् इति एकः गणे अस्ति, करोति इति अन्ये गणे अस्ति, अतः करोति इति कुर्वति, कुर्वन्ति इति तादृशः भवति. एतत् अत्र न लिखितम्, एतत् अभ्यासपुस्तकमस्ति, तदनन्तरं गीतासोपानं कुर्मः. गणस्य विषये तदनन्तरं भवति, केवलम् एकवारं यत् मनसि एतत् एतादृश अस्ति, एतत् विचित्रं नास्ति, तस्य एतत् संस्कृतभाषायां सर्वस्य पदस्य निर्माणं भवति, सर्वस्य पदस्य कारणमस्ति, किमर्थम् एतत् पदम् एतादृशः अस्ति अस्ति इति कारणमपि भवति. अतः न चिन्तयतु ओ एतत् विचित्रमस्ति, करोति कुर्वन्ति भवति, अपि ददाति ददति इति भवति, एतत् किञ्चित् विचित्रमस्ति, न विचित्रः नास्ति तत्र, तत्रापि क्रमः अस्ति, आर्डर् किमपि अस्ति तत्र, पाणिनेः नियमाः सन्ति, सूत्रः अस्ति, अपि गणस्य दशगणाः, क्रियापदस्य दशगणाः सन्ति, तद् एव यदि तद् वयं जानीमः तदनन्तरम् एतत् विचित्रं न दृश्यते, किन्तु ओ एतत् सम्यक् एव अस्ति इति तस्मिन् समये वयं चिन्तयामः. अस्तु, अग्रे प्रिया भगिनी न कृतवती इति मन्ये, प्रिया भगिनी एतद् भवती एव एकनामपदं स्वीकरोतु.
रामः करोति, रामाः कुर्वन्ति, रामः शृणोति, रामाः शृण्वन्ति, रामः ददाति, रामाः ददति, रामः जानाति, रामाः जानन्ति, रामः शक्नोति, रामाः शक्नुवन्ति. अहं करोमि, वयं कुर्मः, अहं शृणोमि, वयं शृणुमः, अहं ददामि, वयं दद्मः, अहं जानामि, वयं जानीमः, अहं शक्नोमि, वयं शक्नुमः.
हा समीचीनं भगिनि. हा आरती भगिनी अग्रे. हा तत्र किमपि नामपदं भवती एव स्वीकरोतु.
सीता करोति, सीताः कुर्वन्ति, सीता शृणोति, सीताः शृण्वन्ति, सीता ददाति, सीताः ददति, सीता जानाति, सीताः जानन्ति, सीता शक्नोति, सीताः शक्नुवन्ति, अहं करोमि, वयं कुर्मः, अहं शृणोमि, वयं शृणुमः, अहं ददामि, वयं दद्मः, अहं जानामि, वयं जानीमः, अहं शक्नोमि, वयं शक्नुमः.
हा समीचीनं समीचीनं भगिनि. कः न कृतवान् अथवा कः न कृतवती एतावत्? बाणचेतनी महोदय भवान् कृतवान् खलु? अस्तु वंशीसुधभगिनी भवती अपि कृतवती
आं महोदय
अस्तु अतः कः
अहं न कृतवती
कृतवती हर्षिता भगिनी वा हा हा हर्षिता भगिनी कृपया करोतु नामपदं भवती एव चिनोतु
कृष्णः करोति कृष्णाः कुर्वन्ति कृष्णः शृणोति कृष्णाः शृण्वन्ति कृष्णः ददाति कृष्णाः ददति कृष्णः जानाति कृष्णाः जानन्ति कृष्णः शक्नोति कृष्णाः शक्नुवन्ति अहं करोमि वयं कुर्मः अहं शृणोमि वयं शृणुमः अहं ददामि वयं दद्मः अहं जानामि वयं जानीमः अहं शक्नोमि वयं शक्नुमः
समीचीनम् अन्य कोऽपि न कृतवान् अथवा कृतवती वा
अहं करोमि महोदय
रमाबाई भगिनी क्षम्यताम् अस्तु भवती एव स्वीकरोति वा नामपदम् अथवा
युवती
अस्तु युवती अस्तु
युवती करोति युवत्यः कुर्वन्ति युवती शृणोति युवत्यः शृण्वन्ति युवती ददाति युवत्यः ददति युवती जानाति युवत्यः जानन्ति युवती शक्नोति युवत्यः शक्नुवन्ति अहं करोमि वयं कुर्मः अहं शृणोमि वयं शृणुमः अहं ददामि वयं दद्मः अहं जानामि वयं जानीमः अहं शक्नोमि वयं शक्नुमः
समीचीनं भगिनि अस्तु अस्तु इदानीं वाक्यद्वयम् अपेक्षितमस्ति यत् अग्रिमपुटे यत् अस्ति कर्मकराः कार्यं कुर्वन्ति इति कुर्वन्ति शृण्वन्ति ददति जानन्ति शक्नुवन्ति एतत् एतानि क्रियापदानि उपयुज्य वाक्यद्वयम् अस्तु कः वक्तुं प्रथमं वक्तुम् इच्छति प्रथमम् एकवाक्यं वदतु तदनन्तरम् अन्यवाक्यं वदतु यदि तादृश इच्छा अस्ति चेदपि समीचीनमेव कोऽपि वक्तुम् इच्छति वा कः रघुपति महोदय वदति वा
शृणोति उपयुज्य
किमपि वदतु वदतु बहुवचने किन्तु
कर्मकराः सङ्गीतं शृण्वन्ति
सङ्गीतं शृण्वन्ति समीचीनम् अस्तु समीचीनम् अग्रिमं वाक्यमपि अस्ति वा अथवा अन्यवाक्यमपि अस्ति वा अस्तु वदतु
गुरवः दानं ददति
गुरवः दानं ददति समीचीनं महोदय समीचीनं उत्तमं अन्य कोऽपि
बालाः बालिकाः मातरं शृण्वन्ति
समीचीनं भगिनि अस्तु वंशी भगिनी अग्रे
अहं संस्कृतं जानामि वयं संस्कृतं जानीमः
किन्तु केवलं बहुवचने एव वदतु उत्तमपुरुषे वदतु सः इति मा अहम् इति न वयम् इति न अत्र कर्मकाराः इति तादृश अन्यत् नामपदं यत् किमपि
कर्मकराः पुस्तकं ददाति कर्मकराः पुस्तकं ददति कर्मकारः पुस्तकं ददाति एकवचनं कर्म
केवलं बहुवचनं वदतु केवलं बहुवचनं वदतु
अस्तु महोदय कर्मकाराः पुस्तकं ददति
ददति तावदेव समीचीनं अन्य कोऽपि वक्तुम् इच्छति वा
आम् आम् आरती
एकं सन्देहमस्ति
कर्मकारः वा कर्मकरः वा किं तत्
तदेव मम मनसि अपि अस्ति महोदय, कर्मकारः इति अहं चिन्तितवान्, तत्र मुद्रणदोषप्रायशः अस्ति इति मन्ये, कर्मकारः इति कर्मकारः अपि बहुवचने कर्मकाराः हा प्रसिद्धमेव अस्ति खलु, अतः मम मनसि अपि सन्देहः आसीत्, समीचीनं भवान् पृष्टवान्, किन्तु अस्तु अहं चिन्तितवान् सर्वे कर्मकराः न तस्य उपयोजनं न कुर्वन्ति, अन्यशब्दः किमपि तस्य उपयोगं कुर्वन्ति इति अहं चिन्तितवान्.
महोदय कर्मकरः इत्युक्ते लेबरर्, कर्मकारः इत्युक्ते ब्लाक् स्मित्.
अस्तु अस्तु धन्यवादः भगिनि, अस्तु धन्यवादः, अस्तु कर्मकरः कर्मकारः
भेदः
अस्तु धन्यवादः धन्यवादः भगिनि,
धन्यवादः.
हा भानुचैतन्य महोदय इदानीं सम्यक् अस्ति इति मन्ये.
हरि ओम् धन्यवादः धन्यवादः
समीचीनमस्ति, अस्तु हा अस्तु. अन्य कोऽपि वक्तुम् इच्छति वा?
शक्नोति अहं, हर्षिता
वदतु भगिनि. हा
बालः कार्यं कर्तुं न शक्नोति, बालाः कार्यं कर्तुं न शक्नुवन्ति.
समीचीनं भगिनि समीचीनम्. अन्यवाक्यम् अस्ति वा?
अहं वदामि.
हा वदतु भगिनि, रमाबाय् भगिनि वदतु.
बालिकाः गीतं शृण्वन्ति, धनिकाः निर्धनान् धनं ददति.
तत्र निर्धनाय इति तादृशरूपम् अस्ति, इदानीं चिन्ता मास्तु, धनं ददति इति तावदेव स्वीकुर्मः. ददति हा समीचीनं समीचीनं भगिनि, अस्तु अस्तु. हा अन्य कोऽपि गीता भगिनी वदतु वदतु.
छात्रः उत्तरं जानाति, छात्राः उत्तरं जानन्ति.
जानन्ति समीचीनं समीचीनं भगिनि, अस्तु. अन्य कोऽपि वक्तुम् इच्छति वा?
आम् छात्राः पाठं शृण्वन्ति.
पाठं शृण्वन्ति समीचीनं महोदय, अस्तु.
ग्राहकाः वित्तं ददति.
अस्तु समीचीनम्, अस्तु हा अस्तु. तत्र प्रश्नः अस्ति वा, कीदृशरूपमस्ति अथवा अन्यप्रश्नः तत्र? अस्तु हा सम्यक् अस्ति, अतः अग्रे गच्छामः. कति इति विषयः इदानीं, हा अग्रे कति कति सन्ति इति, हा प्रश्नः कति अस्ति न, सर्वदा बहुवचने एव भवति. एतद् पृष्ठसङ्ख्या अस्ति 23 इति, हा तत्र अधोभागे लिखितमस्ति रक्तवर्णे कति सन्ति, तदेव प्रश्नवाचकः अस्ति. कति सन्ति, हा स्यूतः कति स्यूताः सन्ति, पञ्चस्यूताः सन्ति इति, हा तादृशरूपं प्रश्नः अपि उत्तरं भवति. हा तत्र प्रश्नः अपेक्षितम् अस्ति, तत्र कः करोति? गीता भगिनी तत् करोति वा, कति इति?
उदाहरणं दृष्ट्वा तादृशानि वाक्यानि लिखतु. यथा पञ्चस्यूताः सन्ति, कति स्यूताः सन्ति? षट् फलानि सन्ति. कति पदानि सन्ति?
तावदेव. अस्तु अग्रे आरती भगिनी अग्रिमम्.
अष्टपर्णानि सन्ति, कति पर्णानि सन्ति?
हा समीचीनं. सरला भगिनी अग्रिमं.
मया गन्तव्यं
वातायनं, हा प्रथमं प्रश्नं पृच्छतु तदनन्तरम् उत्तरं वदतु. सरला भगिनी अस्तु अहं न श्रुतवान् भगिनि अस्तु 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 चिन्ता मास्तु चिन्ता मास्तु भगिनि अस्तु प्रिया भगिनी करोति वा अग्रे
महोदय कति वातायनानि सन्ति षट् वातायनानि सन्ति
समीचीनं भगिनि अस्तु वंशीसुधा भगिनी अग्रे
हा आं महोदय कति अङ्कन्यः सन्ति सप्त अङ्कन्यः सन्ति
समीचीनम् अस्तु भानुचैतन्य महोदय अग्रिमम्
कति कुञ्चिकाः सन्ति पञ्च कुञ्चिकाः सन्ति
हा समीचीनं रघुपति महोदय तदेव फलानि षट् फलानि सन्ति इति तदेव प्रश्नवाचकः उक्तवान्
ओके कति फलानि सन्ति षट् फलानि सन्ति
हा समीचीनम् अस्तु हर्षिता भगिनी तत्र अग्रिमं यत् पर्णम् इति अष्टपर्णानि सन्ति इति
कति पर्णानि सन्ति अष्टपर्णानि सन्ति
हा तावदेव अस्तु रमाबाय् भगिनी न कृतवती इति मन्ये रमाबाय् भगिनी अग्रिमं वातायनं
वातायनं कति वातायनानि सन्ति पञ्चवातायनानि सन्ति
हा समीचीनम् अस्तु हा तत्र कति इति यदि उत्तरं भवति एकं द्वे त्रीणि पञ्च इति तादृश तस्मिन् सन्दर्भे कति इति वयं प्रश्नं पृच्छामः किन्तु यस्य गणनं न भवति आसन्दः कति आसन्दाः सन्ति इति तादृशः तत्सर्वं वयं तस्य प्रश्नं कर्तुं शक्नुमः किन्तु कति जलानि सन्ति तादृशः प्रश्नं न भवति हा अस्तु जलस्य गणनं न कर्तुं शक्नुमः खलु तत्र जलम् अथवा पानीयं तादृशः अस्ति चेत् कियत् इति प्रश्नः भवति हा अस्तु तदग्रे पश्यामः अस्तु इदानीं अग्रे गच्छामः यदि अत्र प्रश्नः नास्ति चेत् कति सन्ति इति प्रश्नवाचकः गणनस्य विषयः प्रश्नः अस्ति वा
महोदय कति आङ्ग्लभाषा इस् हौ मेनि
सत्यं समीचीनं सम्यक् भगिनि सम्यक् धन्यवादः गणनम् इति कौण्टिङ्ग् गणनं कर्तुं शक्नुमश्चेत् कति गणनं न कर्तुं शक्नुमश्चेत् कियत् इति
धन्यवादः
समीचीनं प्रश्नः अस्ति अस्तु अग्रे गच्छामः अतः अग्रिमपुटे हर्षिता भगिनी अग्रे पठति वा
महोदय अत्र प्रश्नस्य एकम् उत्तरं लिखितमस्ति आवरणे विद्यमानस्य पदस्य सहायेन पुनः त्रीणि उत्तराणि लिखतु कुत्र पुस्तकम् अस्ति स्यूतः स्यूते पुस्तकम् अस्ति ग्रन्थालयः ग्रन्थालये पुस्तकम् अस्ति आपणः आपणे पुस्तकम् अस्ति हस्तः हस्ते पुस्तकम् अस्ति
समीचीनं भगिनि अस्तु हा अग्रे प्रिया भगिनी अग्रे करोति वा
महोदय कुत्र बालकः अस्ति गृहं गृहे बालकः अस्ति नगरं नगरे बालकः अस्ति चित्रमन्दिरे मन्दिरं बालकः चित्रमन्दिरे उपाहारगृहम् उपाहारगृहे बालकः अस्ति
हा समीचीनं भगिनि अस्तु अग्रे रघुपतिमहोदय अग्रिमं करोतु तत्र
हा महोदय कुत्र पाञ्चालिका अस्ति उत्पीठिका किं करणीयं महोदय?
तदेव तत् प्रथमवाक्यं पठतु तत्र उत्पीठिकायां.
ओके, उत्पीठिकायां पाञ्चालिका अस्ति.
इदानीं कपाटिका.
कपाटिका, कपाटिकायां पाञ्चालिका अस्ति.
समीचीनं.
पेटिका, पेटिकायां पाञ्चालिका अस्ति. निधानिका, निधानिकायां पाञ्चालिका अस्ति.
अस्तु,
पाञ्चालिका इत्युक्ते का? डाल्?
किं किं महोदय?
पाञ्चालिका इत्युक्ते किं?
डाल्, डाल्, पाञ्चालिका डाल् डाल्.
ओके,
अत्र
महोदय निधानिका मन्ये किम् अर्थं?
निधानि, निधानिका भजनमेव. प्रश्न प्रश्नः न श्रुतवान् भगिनि, वदतु.
कपाटिका कबर्ड् अस्ति, निधानिका एव कबर्ड् अस्ति वा?
प्रायशः अहं न जानामि, अन्य कोऽपि जानाति वा?
पूर्वं
धन्यवादः. बहु सम्यक् अस्ति. अनेकः अत्र सर्वस्य पदस्य अर्थः तत्र प्राप्यते. तत् समीचीनमस्ति. अत्र व्याकरणविषयम् आगच्छामः. तत्र प्रथम यत्र पुस्तकमस्ति तत्र किम् अस्ति? स्यूतः, ग्रन्थालयः, आपणः, हस्त, तत्र पुल्लिङ्गशब्दः अस्ति. अत्र सप्तमीविभक्तिः वदामः कुत्र इति, तत्र स्यूते, ग्रन्थालये, आपणे, हस्ते इति भवति. तदनन्तरं किम् अस्ति? गृहं, नगरं, चित्रमन्दिरम्, उपाहारगृहं, तत्सर्वं नपुंसकलिङ्गशब्दः इति वदामः. तत्रापि तादृशः एव भवति. गृहं गृहे भवति, नगरं नगरे भवति, चित्रमन्दिरं चित्रमन्दिरे भवति, उपहारं गृहम् उपहारगृहे इति भवति. तदनन्तरं किम् अभवत्? उत्पीठिका, तत् स्त्रीलिङ्गपदमस्ति. तत्र सप्तमीविभक्तिरूपं किञ्चित् भेदः अस्ति. तत्र उत्पीठिके न भवति, उत्पीठिकायां. कपाटिका, कपाटिकायां. पेटिका, पेटिकायां. निधानिका, निधानिकायां. तत्र याम् इति आगच्छति. पुल्लिङ्गे अथवा नपुंसकलिङ्गे एकारः भवति. तत्र स्यूतः, ग्रन्थालयः, तत्सर्वं. तदनन्तरं गृहं, नगरं, मन्दिरं, तत्र एकारः. किन्तु अत्र उत्पीठिका, कपाटिका, पेटिका, निधानिका, तत्र याम् इति स्त्रीलिङ्गं तादृशं भवति. अस्तु, इदानीं कः न उक्तवती? वंशीसुधा भगिनी अग्रे पठति वा?
आं महोदय. कुत्र मन्दिरम् अस्ति? काश्यां मन्दिरम् अस्ति. उज्जयिन्यां मन्दिरम् अस्ति. पूर्यां जगन्नाथ अस्ति. कन्याकुमार्यां मन्दिरम् अस्ति.
मन्दिरम् अस्ति, समीचीनं. तत्र भेदः कः इत्युक्ते, प्रथमम् उत्पीठिका, कपाटिका, पेटिका, निधानिका, तत् सर्वं स्त्रीलिङ्गं, किन्तु आकारान्तस्त्रीलिङ्गम् अस्ति. अत्र काशी ईकारान्तस्त्रीलिङ्गपदम् अस्ति. ईकारान्त स्त्रीलिङ्गपदम् अस्ति. तदेव तत्र अस्ति. अस्तु, कः न कृतवान्? गीता भगिनी उक्तवती वा?
मम पिता.
गीता भगिनी, गीता भगिनी अग्रे अग्रे पठतु तत्र मम इति.
मम पिता कार्यालये कार्यालये कार्यं करोति.
अन्यवाक्यं वदतु.
मम पिता वित्तकोषे कार्यं करोति.
समीचीनं.
मम पिता यन्त्रागारे कार्यं करोति. मम पिता दूरवाणीविनिमयकेन्द्रे ओके दूरवाणीविनिमयकेन्द्रे कार्यं करोति. टेलिफोन् एक्स्चेञ्ज्. मम पिता
कार्यं करोति. समीचीनं भगिनि. अस्तु हर्षिता भगिनी तदेव पुनरेकवारं करोति वा तत्र मम इति. तत्र पिता सहोदरा सहोदरी अनुजा अन्य किमपि तत्र उपयोगं कर्तुं शक्नोति.
मम माता कार्यालये कार्यं करोति. मम सहोदरी वित्तकोषे कार्यं करोति. मम भगिनी यन्त्रागारे कार्यं करोति. मम स्नेहितः दूरवाणी विनिमयकेन्द्रे कार्यं करोति. मम भ्राता स्वायत्तसंस्थायां कार्यं करोति.
समीचीनं भगिनि. हा अस्तु. भानु चैतन्यमहोदय भवान् अपि तदेव करोति वा? मध्ये किमपि अन्यत् अपि हा.
मम मित्रं कार्यालये कार्यं करोति. मम अनुजः वित्तकोषे कार्यं करोति. मम अग्रजा यन्त्रागारे कार्यं करोति. मम स्नुषा दूरवाणीविनिमयकेन्द्रे कार्यं करोति. मम अग्रजः स्वायत्तसंस्थायां कार्यं करोति.
समीचीनं महोदय. आरती भगिनी अग्रे तदेव एकवारं.
भवान् संशयः स्वायत्तसंस्था इत्युक्ते कन्सल्टेन्सि
स्वायत्तसंस्था. हा कः प्रश्नः
इत्युक्ते किम् स्वायत्तसंस्था इत्युक्ते किं कन्सल्टेन्सि वा वालण्टरि आर्गनैजेशन् वा किम् इत्युक्ते.
हा स्पोकन् संस्कृत मध्ये द्रष्टव्यं महोदय. अथवा अत्र यदि कोऽपि जानाति चेत् वदतु. आन्त्रप्रनर्शिप् इति तादृश अस्ति वा?
इण्डिपेण्डेण्ट् आर्गनैजेशन्
उत्तरं प्राप्तं वा महोदय?
आम् भवान्.
अस्तु अस्तु. आरती भगिनी अग्रे.
आम् आम्. मम पिता कार्यालये कार्यं करोति. मम माता वित्तकोषे कार्यं करोति. मम सहोदर यन्त्रागारे कार्यं करोति. मम भ्राता दूरवाणीविनिमयकेन्द्रे कार्यं करोति. मम भगिनी स्वायत्तसंस्थायाः कार्यं करोति.
उत्पीठिकायां कपाटिकायाम्
आम्
अतः
मम भगिनी स्वायत्तसंस्थायां कार्यं करोति.
हा समीचीनं भगिनी, हा इदानीं समीचीनम् अस्ति. हा अस्तु, तत्र अग्रे कोऽपि न यः अस्ति, कोऽपि अस्ति वा न पठितवान् अथवा पठितवती इदानीं तत् एतत्? रमाबाई भगिनी पठितवती वा?
अहं वदामि.
अस्तु,
मम अनुजः कार्यालये कार्यं करोति, मम अग्रजः वित्तकोषे कार्यं करोति, मम माता यन्त्रगारे कार्यं करोति, मम पिता दूरवाणी विनयकेन्द्रे कार्यं करोति, मम सोदरः स्वायत्तसंस्थायां कार्यं करोति.
समीचीनम्. अस्तु, सर्वे एतत् एतत् पुटे अथवा तस्य पूर्वपुटे किमपि कृतवन्तः इति मन्ये. निमिषः एक एव अस्ति, तत् तत्र तस्य उपयोगमपि कुर्मः. अस्तु, तत्र अग्रिमं यदस्ति तत् रघुपति आचार्य महोदय, अग्रिमं 5.3 यदस्ति तद् एकवारं पठतु तत्र.
एकं एतम् इदं वा एतम् एतं पदबन्धम् उचितपदैः पूरयतु. यथा चालकः अत्र अस्ति,
अत्र लोकयाने. चालकः, इदानीं वाक्यं पूर्णवाक्यं.
चालकः अत्र अस्ति, चालकः लोकयाने अस्ति.
हा समीचीनं, समीचीनं महोदय. अग्रे रमाबाई भगिनी, अग्रिमम्.
भवतः माता कुत्र अस्ति? भवतः माता गृहे अस्ति.
समीचीनं भगिनी. अस्तु, अग्रे वंशीश्रुता भगिनी, अग्रिमम्.
आं महोदय, नागरिकाः अत्र वसन्ति.
नागरिकाः, नागरिकाः,
क्षम्यता, नागरिकाः अत्र वसन्ति, नागरिकाः नगरे वसन्ति.
हा समीचीनं भगिनी. हा प्रिया भगिनी, अग्रिमम्.
आं महोदय, अत्र कार्याणि कुर्वन्ति, कार्यालये कार्याणि कुर्वन्ति.
समीचीनं भगिनी. अस्तु, गीता भगिनी, अग्रिमम्. गीता भगिनी,
भवान् कुत्र पठति? भवान् विद्यालये पठति.
हा समीचीनं भगिनी. अस्तु, आरती भगिनी, अग्रिमम्.
आम्, धनम् अत्र रक्षामः वित्तकोषे, धनं वित्तकोषे रक्षामः.
समीचीनं भगिनी. हर्षिता भगिनी, अग्रिमम्.
चलनचित्रम् अत्र पश्यतु, चलनचित्रं चित्रमन्दिरे पश्यतु.
हा समीचीनं. हा अस्तु, भानुचेतनी महोदय, अग्रिमम्.
आम्, मशि कुत्र अस्ति? कुत्र अस्ति अहं न जानामि.
अस्तु अस्तु, इदानीं वदतु.
मशि लेखन्याम् अस्ति.
हा समीचीनं. कोऽपि न उक्तवती अथवा उक्तवान् वा इदानीं पर्यन्तं? सर्वे उक्तवन्तः इति मन्ये. अस्तु, इदानीं समयः जातः, किन्तु वयं किञ्चित् अग्रे किं किं कृतवन्तः चेत् लोट्लकारस्य किञ्चित् अभ्यासः, क्रियापदस्य बहुवचनरूपाणि दृष्टवन्तः, अपि सप्तमी विभक्ति तस्य किञ्चित् परिचयः जातः कुत्र इति. तत्र वयं कृतवन्तः. अस्तु, अद्य रेकार्डिङ्ग् अपि अस्ति, तद् अहं तस्य लिङ्क् ईमेल् मध्ये प्रेषयामि. अस्तु, सर्वेभ्यो नमस्कारः, अग्रिमसप्ताहे मिलामः।
धन्यवादः,
नमस्कारः, धन्यवादः, हरि ओम्, हरि ओम्, नमस्कारः।